काकस्य गात्रम् यदि काञ्चनस्य माणिक्यरत्नम् यदि चञ्चुदेशे एकैकपक्षे ग्रथनम् मणीनाम् तथापि काको न तु राजहंसः।